एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन अस्यैव वैशाख मासस्य अष्टाविंशे दिवसे द्विवादनाय संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतमस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण वैशाख मासस्य अष्टाविंशे दिवसे द्विवादनाय सिंहप्रासादवर्तिनी संघीय संसद भवने संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। तत्पूर्वं मन्त्री परिषद ह्य उपविष्टेन उपवेशेन वैशाख मासस्य अष्टाविंशे दिवसे द्विवादनाय संघीय संसद अधिवेशनम् आह्वातुं राष्ट्रपतेः समक्षं परामर्शनाय निर्णीतमासीत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सांविधानिक परिषद कार्यकर्तव्याधिकार कार्यविधि सम्बद्ध एतद् विक्रमवर्षीय अध्यादेश स्वीकृतोऽस्ति। सर्वकारेण अध्यादेशोऽयं स्वीकृत्यर्थं राष्ट्रपते समक्षं प्रस्तुत आसीत्। राष्ट्रपतिना पौडेलेन च गत रविवासरे पुनर्विचाराय प्रत्यावर्तित आसीत्। तदनु ह्य उपविष्टेन मन्त्री परिषद उपवेशेन अध्यादेशोऽयं यथावदेव राष्ट्रपते समक्षं यह एव पुनः प्रस्तुत आसीत्। प्रधानमन्त्रिणा बालेन्द्र शाहेन शिक्षालयेषु दलानां ध्वजस्य कर्मचारीतन्त्रे दलस्य स्यूतानां च निषेधनेन विद्यार्थिनां कर्मचारिणां च अधिकारस्य नियमनं न भवति अपितु वृत्तिगत स्वतन्त्रता सुदृढा भविष्यति इति स्पष्टीकृतं वर्तते। फेसबुक इति सामाजिक सञ्जालस्य माध्यमेन स्वस्य धारणां पूर्वेद्युः सार्वजनिकुर्वन् एवं स्पष्टीकृतं वर्तते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन संकटग्रस्तेषु मार्गेषु यातायात साधनानां गमनागमनं निषिध्य यात्रिणां यातायात साधनानां च सुरक्षायाः सुनिश्चयनं कर्तुं कारयितुं च सर्वे जनपद प्रशासन कार्यालयाः निर्दिष्टाः वर्तन्ते। प्राधिकरणेन संकटग्रस्तेषु स्थानेषु यातायात साधनानां गमनागमनस्य निषेधस्य अवज्ञां कुर्वतः चालकान् यातायात स्वामिनश्च दण्डयितुं निर्दिष्टमस्ति। परह्य सोमवासरस्य सायं काभ्रे जनपदस्य रोषी नद्या प्रवाहस्य वर्धनानन्तरं संकटस्य सम्भावनायामेव पञ्चानां यातायात साधनानाम् अग्रे वर्धनस्य पश्चात् प्रवाहस्य मध्ये अवरुद्धा यात्रिणः पञ्च यातायात साधनानि च सकुशलम् उद्धृताः वर्तन्ते। मार्गेषु संकटस्य अवस्था विश्लिष्य आवश्यकतानुसारेण यातायात साधनानां गमनागमनं निषेद्धुं निर्दिष्टमस्ति इति प्राधिकरणस्य उपसचिवः रामबहादुर केसी असूचयत्। सर्वकारेण समस्याग्रस्त सहकारी संस्थानां संचयकर्तॄणां वित्तस्य आगामिनः ज्येष्ठ मासस्य प्रथम सप्ताहात् प्रत्यावर्तनं प्रारप्स्यते। अस्यैव वैशाख मासस्य नवम दिवसात् कार्यं प्रारब्धवत्या समस्याग्रस्त सहकारी व्यवस्थापन समित्या सहकारी संस्थानां संचयकर्तॄणां आवश्यक विवरणं संकलय्य वित्तस्य प्रत्यावर्तनाय पूर्वकार्यं विहितं वर्तते। समित्या विहितस्य अध्ययनस्य अनुसारेण समस्याग्रस्त सहकारी स्थानाम् आसन्न षट्सप्ततेः संचयकर्तॄणाम् आसन्न चत्वारिंशत् अब्जानि रूप्यकाणि प्रत्यावर्तनीयानि वर्तन्ते। सर्वकारेण सार्वजनिक सेवा प्रवाहस्य प्रतिगृहं प्रापणस्य उद्देश्येन संचालिता सर्वकारीया कुरियर इति नाम्नि परिपत्र वहन सेवा एकोनविंशत्यां जनपदेषु प्रारब्धा वर्तते। कार्यक्रमस्य प्रारम्भस्य पश्चात् अधुनावधि सहस्रत्रयम् एकत्रिंशदधिकैकशतं पारपत्राणि सम्बद्ध जनपदेषु प्रेषितानि सन्ति इति पत्राचार सेवा विभागस्य महानिर्देशक मनमाया भट्टराई पंगेनी असूचयत्। तेषु सप्तषष्ट्यधिक षट्शतं पारपत्राणि सम्बद्ध जनानां गृहेषु एव प्रापितानि सन्ति इति विभागेन ज्ञापितं वर्तते। सर्वकारेण सर्वकारीय सेवायां विद्यमाना कर्मचारी संघटनस्य व्यवस्था निरस्तीकृता वर्तते। संघीय विषय सामान्य प्रशासन मन्त्रालयस्य शाखाधिकृत विवेक विडारी ह्यो विज्ञप्तिं प्रकाश्य कतिचित् नेपालाधिनियमान् संशोधयितुं निर्मितस्य एतद् विक्रमवर्षीयस्य अध्यादेशस्य माध्यमेन एकोनपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीयस्य सर्वकारीय सेवाधिनियमस्य त्रिपञ्चाशत्तम प्रकरणे विद्यमाना कर्मचारी संघस्य व्यवस्था निरस्तीकृता अस्तीति असूचयत्। अध्यादेशेन एवं व्यवस्थायाः करणानन्तरं मन्त्रालयेषु विभागेषु आयोगेषु सचिवालयेषु अन्येषु सर्वेषु सार्वकारीय निकायेषु च विद्यमानान् श्रमिक संघटनस्य कार्यालयान् पिधातुं मन्त्रालयेन सर्वे निकायाः निर्दिष्टाः वर्तन्ते। सर्वकारेण कर्मचारी संघटनस्य प्रयोजनाय प्रयुक्तानि सर्वकारीय भवनानि कार्यकक्षान् यातायात साधनानि अन्य सेवा सौविध्यानि च तत्कालं प्रत्यावर्तयितुं सम्बद्ध कार्यालयाः निर्दिष्टाः वर्तन्ते। सर्वकारेण षट्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य राष्ट्रिय पाठ्यक्रमस्य प्रारूपस्य समय सापेक्ष रूपेण पुनरवलोकनं विधास्यते। शिक्षा विज्ञान प्रविधि मन्त्रालयेन राष्ट्रिय पाठ्यक्रमस्य प्रारूपस्य पुनरावलोकनाय नवदिग्दर्शनं कर्तुं प्राध्यापकस्य डाक्टर बालचन्द्र लुइटेल इत्यस्य संयोजकत्वे कार्यदलं संघटितमस्ति। परिवर्तित समयानुसारेण पाठ्यक्रमं परिमार्जयितुं नैतिक शिक्षां समावेष्टुं च कार्यदलं संघटितमस्ति इति मन्त्रालयेन ज्ञापितं वर्तते। आईसीसी इति विश्व क्रिकेट क्रीडा परिषद विश्वकप लीग इति त्रिकोणात्मक प्रतियोगितायाः अन्तर्गतं ह्यः सम्भूतायां क्रीडायां नेपालेन ओमान देशः पराजितोऽस्ति इति समाचारः।